ప్రతిగుం హవామహే కవిం కవీనాముపమశ్రవస్తమం జ్యేష్ఠరాజం బ్రహ్మణాం బ్రహ్మణస్పద ఆరశృణ్వన్ నోదిభిః సేదసాదనం ప్రణో దేవీ సరస్వతీ వాజేభిర్వాజినీవతీ ధీనామవిత్రయవతో గణేశాయ నమః సరస్వత్యై నమః శ్రీగురుభ్యో నమః హరిః ఓం నమో భగవతే రుద్రాయ ఓం నమస్తే రుద్రమన్యవ ఉతోత ఇషవే నమః నమస్తే అస్తు ధన్వరే బాహుభ్యాముతతే నమః యాత ఇషుః శివతమా శివం బభూవతే ధనుః శివాచ రవ్యాయాతవతయానో రుద్రమృడయా యాతే రుద్ర శివా తనోరఘోరా పాపకాశినీ తయానస్తను వాషంతమయా గిరిశంతాభిజాగశీ యామిషుం గిరిశంతహస్తే వివశ్యస్తవే శివాం గిరిత్రతాం కురు మాహి గుంసీః పురుషం జగత్ శివేన వచసా త్వా గిరిశాచ్ఛా వదామసి యథా నః సర్వమిజ్జగద యక్ష్మగు సుమనా అసత్ అధ్యవోచజది వక్తా ప్రథమో దైవ్యోభిషక్ అహీగశ్చ సర్వాంజం భయం సర్వాశ్చ యాతు ధాన్యః అసౌయస్తామ్రో అరుణ ఉత వప్రస్వ మంగళః యే చేమాగుం రుద్రా అభితో రిక్షశ్రుతా సహస్రశో వైశాగుం హేణ ఈమహే అసవ్యో వసర్పతి నీలగ్రీవో విలోహితః ఉతైనం గోపా అదృశన్నదృశన్నుదహార్యః ఉతైనం విశ్వా భూతాని సదృష్టో మృడయాదినః నమో అస్తు నీలగ్రీవాయ సహస్రాక్షాయ మీడుషే అథో యే అస్య సత్వానోహం తేభ్యో కరన్ నమః ప్రవంశ ధన్వనస్త్వముభయోరాత్మీయోర్జాం యాశ్చ దేహస్త ఇషవ పరాతా భగవో వప అవతత్య ధనుస్వగు సహస్రాక్షశతేషు ధే నిశీర్య శల్యానాముకా శివో న సుమనాభవ విజ్యం ధనుః కపర్దినో విశల్యో బాణవాగుం ఉత అనేశన్నస్యేషవ ఆభురస్య నిషంగతిః యా దేహేతిర్మీడుష్టమహస్తే బభూవతే ధనుః తయాస్మాన్ విశ్వతస్త్వమయక్ష్మయా పరిభుజ నమస్తే అత్వాయుధాయానాదతాయ ధృష్ణవే ఉభాభ్యాముతతే నమో బాహుభ్యాం తవ ధన్వనే పరితే ధన్వనో హేతిరస్మాన్ వృణక్తు విశ్వతః అథోయ ఇషుదిస్తవారే అస్మన్నిదేహితం నమస్తే అస్తు భగవన్ విశ్వేశ్వరాయ మహాదేవాయ త్రయంబకాయ త్రిపురాంతకాయ త్రికాగ్నికాలాయ కాలాగ్నిరుద్రాయ నీలకంఠాయ మృత్యుంజయాయ సర్వేశ్వరాయ సదాశివాయ శ్రీమన్మహాదేవాయ నమః నమో హిరణ్యవాహవే సేనాన్యే దిశాం చ పతయే నమో నమో వృక్షేభ్యో हरिकेशेभ्यः पशूनाम् पतये नमो नमः सस्पिञ्जराय त्विषीमते पतीनाम् पतये नमो नमो बब्लुषाय विव्याधिनेनानाम् पतये नमो नमो हरिकेशायोपवीतिने पुष्टानाम् पतये नमो नमो भवस्य हेत्यै जगताम् पतये नमो नमो रुद्राय तथा विने क्षेत्राणाम् पतये नमो नमः सूताय हन्त्याय वनानाम् पतये नमो नमो रोहिताय स्तपतये वृक्षाणाम् पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणाम् पतये नमो नमो भुवन्तये वारिवस्कृतायौषधीनाम् पतये नमो नम उच्चैर्घोषाय क्रन्दयते पत्तीनाम् पतये नमो नम कृत्सवीताय धावते सत्त्वनाम् पतये नमः नमः सहमानाय निव्याधिन आव्याधिनीनाम् पतये नमो नमः ककुभाय निषङ्गिणे सेनानाम् पतये नमो नमो निषङ्गिण इषु धिमते तस्कराणाम् पतये नमो नमो वञ्चते परिवञ्चते स्थायूनाम् पतये नमो नमो निचेदवे परिचरायारण्यानाम् पतये नमो नमः सृकाविभ्यो जिगागुंसद्भ्यो मुष्णताम् पतये नमो नमोऽसिमद्भ्यो नक्तम् चरद्भ्यः प्रकृन्तानाम् पतये नमो नम उष्णीषिणे गिरिजराय कुलुञ्चानाम् पतये नमो नम इषु मध्यो धन्वाविभ्यश्च वो नमो नम आतन्वानेभ्यः प्रदिदधानेभ्यश्च वो नमो नम आयच्छभ्यो विसृजभ्यश्च वो नमो नमोऽस्यभ्यो विद्यभ्यश्च वो नमो नम आसीनेभ्यश्च यानेभ्यश्च वो नमो नम स्वपद्भ्यो जाग्रद्भ्यश्च वो नमो नमस्तिष्ठद्भ्यो तावद्भ्यश्च वो नमो नमः सभाभ्यः सभापतिभ्यश्च वो नमो नमो अश्वेभ्योऽश्वपतिभ्यश्च वो नमः नम आव्याधिनीभ्यो विविध्यन्तेभ्यश्च वो नमो नम उगणाभ्यस्त्रिगम् हतेभ्यश्च वो नमो नमो घृत्सेभ्यो घृत्सपतिभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो रतेभ्यो रतेभ्यश्च वो नमो नमो रथेभ्यो रथपतिभ्यश्च वो नमो नमः सेनाभ्यः सेनानिभ्यश्च वो नमो नमः क्षत्रुभ्यः सङ्गहेतृभ्यश्च वो नमो नमस्तक्षद्भ्यो रथकारेभ्यश्च वो नमो नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमो नमः पुञ्जिष्ठेभ्यो निषादेभ्यश्च वो नमो नम इषुकृद्भ्यो धन्वकृद्भ्यश्च वो नमो नमो मृगयोभ्यश्वलिभ्यश्च वो नमो नमश्वभ्यश्वपतिभ्यश्च वो नमः नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च क्षितिकण्ठाय च नमः కపర్దిణే చ వ్యుక్తకేశాయ చ నమః సహస్రాక్షాయ చ శతధన్వనే చ నమో గిరిశాయ చ శిపివిష్టాయ చ నమో మీరుష్టమాయ జేషుమతే చ నమో హ్రస్వాయ చ వామనాయ చ నమో బృహతే చ వర్షీరసే చ నమో వృద్ధాయ చ సంవృద్ధనే చ నమో అగ్ర్యాయ చ ప్రథమాయ చ నమః ఆశవే చాచిరాయ చ నమః శీఘ్రయాయ చ శీవ్యాయ చ నమః ఊర్మ్యాయ చ వత్స్వన్యాయ చ నమః శ్రోతస్యాయ చ ద్వీప్యాయ చ నమో జ్యేష్ఠాయ చ కనిష్టాయ చ నమః పూర్వజాయ చ పరజాయ చ నమో మధ్యమాయ చ పగల్వాయ చ నమో జగన్యాయ చ బుద్ధయాయ చ నమః శోభ్యాయ చ ప్రతిసర్యాయ చ నమో యామ్యాయ చ క్షేమ్యాయ చ నమః ఉర్వర్యాయ చ కళ్యాయ చ నమః శ్లోక్యాయ చ వసాన్యాయ చ నమో వన్యాయ చ కక్ష్యాయ చ నమః శ్రవాయ చ ప్రతిశ్రవాయ చ నమః ఆశుషేణాయ చాశురతాయ చ నమః శూరాయ చ వవిందతే చ నమో వర్మిణే చ వరోదినే చ నమో బిల్వినే చ కవచినే చ నమః శ్రుతాయ చ శ్రుతసేనాయ చ నమో దుందుభ్యాయ చ అనన్యాయ చ నమో విష్ణవే చ ప్రవృషాయ చ నమో దూతాయ చ ప్రహితాయ చ నమో నిషంగిణే చేషుధిమతే చ నమః తీక్ష్ణేశవే చాయుధినే చ నమః స్వాయుధాయ చ సుధన్వనే చ నమః శ్రుత్యాయ చ పత్యాయ చ నమః కాట్యాయ చ నీప్యాయ చ నమః శోద్యాయ చ సరస్యాయ చ నమో నాద్యాయ చ వైషంతాయ చ నమః కోప్యాయ చ వట్యాయ చ నమో వశ్యాయ చ వశ్యాయ చ నమో మేఘ్యాయ చ విద్యుద్యాయ చ నమః ఇంద్రియాయ చ తప్యాయ చ నమో వాక్యాయ చ రేష్మ్యాయ చ నమో వాస్తవ్యాయ చ వాస్తుపాయ చ ఓం హర 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 ఓం నమః సోమాయ చ రుద్రాయ చ నమః తామ్రాయ చ అరుణాయ చ నమః శంగాయ చ పశుపతయే చ నమః ఉగ్రాయ చ భీమాయ చ నమో అగ్రే వధాయ చ దూరే వధాయ చ నమో హంత్రే చ హనీయసే చ నమో వృక్షేభ్యో హరికేశేభ్యో నమస్తారాయ నమః శంభవే చ మయోభవే చ నమః శంకరాయ చ మయస్కరాయ చ నమః శివాయ చ శివతరాయ చ నమస్తేత్యాయ చ కోల్యాయ చ నమః పార్యాయ చ భార్యాయ చ నమః ప్రతరణాయ చోత్తరణాయ చ నమః ఆర్యాయ చ లాద్యాయ చ నమః షష్ప్యాయ చ భేన్యాయ చ నమః శికత్యాయ చ ప్రవాహ్యాయ చ నమ ఇరిణ్యాయ చ ప్రపత్యాయ చ నమః కిగుంశిలాయ చ క్షయరాయ చ నమః కపర్దినే చ పులస్తయే చ నమో గోష్ట్యాయ చ గృహ్యాయ చ నమః స్థల్ప్యాయ చ గేయాయ చ నమః కాట్యాయ చ గవరేష్టాయ చ నమో హృదయ్యాయ చ నివేష్ప్యాయ చ నమః పాగుంసవ్యాయ చ రజస్యాయ చ నమః శుష్క్యాయ చ హరిత్యాయ చ నమో లోప్యాయ చోలప్యాయ చ నమః ओर्व्याय च सोर्व्याय च नमः पर्ण्याय च पर्णषद्याय च नमो पगुरमाणाय च विघ्नते च नमः आक्षिदते च प्रक्षिदते च नमो वक्षिरिकेभ्यो देवानागुं हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वत्केभ्यो नम आनिर्हतेभ्यो नम आमीवत्केभ्यः द्रावे अन्धतस्पते दरिद्रन्नीललोहिता येषाम् पुरुषाणामेषाम् पशूनाम् मा भे मा रोमो येषाम् किञ्चन ममत् याते रुद्र शिवा तनो शिवा विश्वाः भेषजे शिवा रुद्रस्य भेषजे तयानो मृडजीवसे इवागुम् रुद्राय तवसे कपर्दिने क्षयद्वैराय प्रवरामहे मतिम् यथा नश्यमशद्विपदे चतुष्पदे विश्वम् पुष्टङ्गामे अस्मिन्ननादुरम् मृडानो रुद्रोदनो मयस्कृते क्षयद्वैराय नमसा विदेमते यच्चञ्चयोश्यमनुरायजे पिता ददश्याम तव रुद्र प्रणीतो मानो महान्तमुतमानो अर्भकम् मान उक्षन्तमुतमान उक्षितम् मानो वदे पितरम् मोदमातरम् प्रियामानस्तनुवो रुद्ररीरिषः मानस्तोके तनये मान आयुषि मानो गोषु मानो अश्वेषु रीरिषः वीरान्मानो रुद्रवामिदो वदेर्हविष्मन्तो नमसा विदेमते आरात्ये गोह्न उत पोरुषग्ने क्षयद्वीराय सुम् नमस्वेते अस्तु रक्षा च नो अरि च देव ब्रूयदा च नः शर्म यच्च त्रिबर्हाः सुहिश्रुतम् गर्त सदम् युवानम् मृगन्न भीममुपहत्तुमुग्रम् मृडाजरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव पन्तु सेनाः परिणो रुद्रस्य हेतिर्वृणत्तु परिद्वेषस्य दुर्मतिरगायोः अवस्थिरा मगमध्यस्तनुष्वमीर्वस्तोकायतनयाय मृडया मीरुष्टमशिवतमशिवो नः सुमना भव परमे वृक्ष आयुधन्निदाय कृत्य वसान आचरपि नाकम् विव्रदागहि विकिरित विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम् हेतयोऽन्यमस्मन्निव पन्तु ताः सहस्राणि सहस्रदा बाहुवोस्तव हेतयः तासामीशानो भगवः पराचीनामुखा कृते सहस्राणि सहस्रशो ये रुद्रा अधिभूम्या एषागुम् सहस्रयोजने वधन्वानि तन्मते अस्मिन् महत्यर्णवेन्दरिक्षे भवा अदि नीलग्रीवाशिति कण्ठा सर्वा अधः क्षमाचराः नीलग्रीवाशिति कण्ठा दिवगुम् रुद्रा उपश्रिताः ये वृक्षेषु तस्मिञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो ऋषिकासः कपर्दिनः ये अन्येषु विविध्यन्ति पात्रेषु विपतो जनान् ये पताम् पतिरक्षय ऐलवृदाय व्युदः ये ते तानि प्रचलन्त शिकावन्तो निषङ्गिणः एतावन्तस्य भूयागुम् तस्य दिशो रुद्राविदस्तिरे तेषागुम् सहस्रयोजने वधन्वानि तन्वसे namo rudrebhyo ye prithivyam ye indarikshe ye divye shamannam vato varshamishavastebhyo dasha prachir dasha dakshina dasha pratichir dasho dichir dasho dvastebhyo namaste no mridayantu teyam dishvayaschano dveshtitam vojam vedadami trembakalya jamahe sugandhim pushtivardhanam urvarukamiva vandhana nrityor mukshiyam amritat yo rudro agnayo apsuya oshadishu yo rudro vishva bhuvanadiveshatasai rudraya namo astu yete sahasramayutam pasha mrityor martyaya antave tanyajnasya mayaya sarvanavaya jamahe mrityave swaha mrityave swaha pranaanam grandhirasi rudro mavishantakah tenanena apyayasva namo rudraya vishnave mrityurme pahi tamastu hi asu shasu danvayo vishvasya kshayati vishajasya yakshva maheso manasaya rudram namo bhirdevam asuranduvasya ayam me hasto bhagavan ayam me bhagavattarah ayam me vishvabhesa joyagu shivabhimarshanaha om shanti shanti shantihi om agna vishto sajosha seva vardhantu vangiraha dhumnairvajibhiragatam vajascha me prasavascha me prayatischa me prasidischa me dhetischa me kratuscha me swarascha me shlokascha me shravascha me shrutischa me jyotischa me suvascha me pranascha me apanascha me vyanascha me suscha me chittancha vaadhetancha me vaccha me manascha me chakshuscha me shrotrancha me dakshascha me balancha ma ojascha me sahascha ma ayuscha me jaracha ma atmacha me tanuscha me sharmacha me varmacha me ngaricha me sthanicha me parugumshicha me shariranicha me jaishtyancha ma adhipatyancha me manyuscha me bhamascha me mascha me mhascha me jemacha me mahimacha me varimacha me prathimacha me varshmacha me draghuyacha me vruddhamcha me vruddhascha me satyancha me shraddhacha me jagaccha me dhanancha me vashascha me tvishascha me kridacha me modascha me jatancha me janishyamanancha me suktancha me sukrutancha me vittancha me vedyancha me bhutancha me bhavishyaccha me sugancha me supathancha maruddhancha maruddhischa me kruptancha me kruptischa me matischa me sumatischa me shancha me mayascha me priyancha me nu kamascha me kamascha me saumanasascha me bhadramcha me shreyascha me
वस्यश्च मे यशश्च मे भगश्च मे द्रविणं च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतश्च मे विश्वं च मे महश्च मे संवित् च मे ज्ञात्रं च मे सोऽस्य मे प्रसोऽस्य मे शीलं च मे लयश्च मरुतं च मे मृतं च मे यक्ष्मं च मे नाम यच्च मे जीवातुश्च मे दीर्घायुत्वं च मे न मित्रं च मे अभयं च मे सुगं च मे शयनं च मे सुषा च मे सुदिनं च मे ऊर्च मे सुनृता च मे पयश्च मे रसश्च मे घृतं च मे मधु च मे सद्भिश्च मे सपेतिश्च मे कृषिश्च मे वृष्टिश्च मे जैत्रं च मौद्भिद्यं च मे रयश्च मे रायश्च मे पुष्टं च मे पुष्टिश्च मे विभु च मे प्रभु च मे बहु च मे भूयश्च मे पूर्णं च मे पूर्णतरं च मे क्षितिश्च मे कोयवाश्च मे नं च मे क्षुच्च मे व्रीहयश्च मे यवाश्च मे माशाश्च मे तिराश्च मे मुद्गाश्च मे खल्वाश्च मे गोधूमाश्च मे मसुराश्च मे प्रियङ्गवश्च मेणवश्च मे श्यामाकाश्च मे नीवाराश्च मे अश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे शिखराश्च मे वनस्पतयश्च मे हिरण्यं च मे यश्च मे शेषं च मे त्रपुश्च मे श्यामं च मे लोहं च मे अग्निश्च म आपश्च मे विरुधश्च म ओषधयश्च मे कृष्टपच्यं च मे कृष्टपच्यं च मे ग्राम्याश्च मे पशव आरण्याश्च यज्ञेन कल्पं ताम् वित्तं च मे वित्तश्च मे भूतं च मे भूतश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मे अर्थश्च म एवश्च म इतिश्च मे गतिश्च मे अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे पूषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे त्वष्टा च म इन्द्रश्च मे धाता च म इन्द्रश्च मे विष्णुश्च म इन्द्रश्च मे श्विनौ च म इन्द्रश्च मे मरुतश्च म इन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे पृथिवी च म इन्द्रश्च मेऽन्तरिक्षं च म इन्द्रश्च मे द्यौश्च म इन्द्रश्च मे दिशश्च म इन्द्रश्च मे मूर्धा च म इन्द्रश्च मे प्रजापतिश्च म इन्द्रश्च मे अगुंशुश्च मे रश्मिश्च मेधाभ्यश्च मेधिपतिश्च म उपागुंशुश्च मे अन्तर्यामश्च म ऐन्द्रवायवश्च मे मैत्रावरुणश्च म अश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्थे च म आग्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च मरुतुग्रहाश्च मेति ग्राह्याश्च म ऐन्द्राग्नश्च मे वैश्वदेवश्च मे मरुत्वतीयाश्च मे महेन्द्रश्च आदित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे पात्नीवतश्च मे हार्योजनश्च मे इद्मश्च मे बर्हिश्च मे वेदश्च मे विष्णुयाश्च मे सृजश्च मे चमसाश्च मे ग्रावाणश्च मे स्वरवश्च म उपरवाश्च मे धिषवणे च मे द्रोणकलशश्च मे वाजव्यानि च मे पूतवृच्छम आधवनीयश्च म आग्नेन्द्रम् च मे अविर्धानम् च मे गृहाश्च मे सदश्च मे पुरोडाशाश्च मे पचताश्च मे वबृदश्च मे स्वगाकारश्च मे अग्निश्च मे घर्मश्च मेऽर्कश्च मे सूर्यश्च मे प्राणश्च मेश्वमेधश्च मे पृथिवी च मे दिदिश्च मे दिदिश्च मे द्यौश्च मे शक्वरेरङ्गुलयो दिशश्च मे यज्ञेन कल्पम् ताम्रुच्च मे साम च मे सोमश्च मे यजुश्च मे दीक्षा च मे तपश्च मरुतुश्च मे व्रतम् च मे होरात्रयोर्वृष्ट्या बृहद्रदन्तरे च मे यज्ञेन कल्पेताम् गर्भाश्च मे वत्साश्च मे त्रयविश्च मे त्रयवी च मे दित्यवाच्च मे दित्यौहे च मे पञ्चाविश्च मे पञ्चावी च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाच्च मे तुर्यौहे च मे पष्टवाच्च मे पष्टौहे च मुक्षा च मे वशा च मृषभश्च मे वेहश्च मे नड्वाञ्च मे धेनुश्च म आयुर्यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पतामपानो यज्ञेन कल्पताम् व्यानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पताविश्रोत्रम् यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाग्यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पताम् यज्ञो यज्ञेन कल्पताम् एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च म एकविपुंशतिश्च मे त्रयोविपुंशतिश्च मे पञ्चविपुंशतिश्च मे सप्तविपुंशतिश्च मे नवविपुंशतिश्च म एकत्रिपुंशच्च मे त्रयस्त्रिपुंशच्च मे चतस्रश्च मेऽष्टौ च मे द्वादश च मे षोडश च मे विपुंशतिश्च मे चतुर्विपुंशतिश्च मे ष्टाविपुंशतिश्च मे द्वात्रिपुंशच्च मे षट्त्रिपुंशच्च मे चत्वारिपुंशच्च मे चतुश्चत्वारिपुंशच्च मे अष्टाचत्वारिपुंशच्च मे वाजश्च प्रसवश्चापिजश्च क्रतुश्च सुवश्च मूर्धा च व्यश्नियश्चान्त्यायनश्चान्त्यश्च भौवनश्च भुवनश्चाधिपतिश्च इडादे बहुर्मनुर्यज्ञे बृहस्पतिरुक्ता मदानि सगुं त्रिषद्विश्वे देवासोक्तवाच पृथिवीमातर्मा माहिगुंसीर्मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवरिष्यामि मधुमतीम् देवेभ्यो वाचमुद्यासगुम् शुश्रूषेण्या मनुष्येभ्यस्तम् मा देवा अवन्तु शोभाणि पितरोऽनुमदन्तु ॐ। शांति शांति शांतिः। ॐ तच्छयोरावृणीमहे गातुर्यज्ञाय गातुर्यज्ञपतये देवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जगातु भेषजम् शन्नो अस्तु द्विपदे शंचतुष्पदे। ॐ शान्ति शान्ति शान्तिः। सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् स भूमिम् विश्वतो भृत्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदगुम् सर्वम् यद्भूतम् यच्च भव्यम् मृतामृतत्वस्येषारः यदन्येनातिरोहति एतावानस्य महिमा अथोऽध्यायागस्य पुरुषः पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतम् दिवे त्रिपादोर्ध्वौ दैत्पुरुषः पादोऽस्येहाभवात् पुनः ततो विश्वम् व्यक्रामत् शासनानशने अभि तस्माद्विराडजायत विराजो अधिपुरुषः स जातो अत्यरिच्यत पश्चाद्भूमिमतो पुरः यत्पुरुषेण हविषा देवायज्ञमतन्वता वसन्तो अस्यासीदाज्यम् नेष्मयिद्मः शरद्भविः सप्तास्यासन् परिदयः त्रिसप्त समिदकृताः देवायज्ञम् तन्वानाः अवह्नन् पुरुषम् पशुम् तम् यज्ञम् परेषि प्रोक्ष्यन् पुरुषम् जातमग्रतः तेन देवा अयजन्त साध्यार्षयश्चये तस्माद्यज्ञात् सर्वभूतः सम्भृतम् प्रसदाज्यम् पशोगस्तागश्चक्रे वायव्यान् आरण्यान् ग्राम्याश्च ये तस्माद्यज्ञा सर्वभूतः वृषः सामानि जग्निरे छन्दागुंसि जग्निरे तस्मात् यजस्तस्मादजायत तस्मादस्वा अजायन्त एकेचो भयादतः गावो हजग्निरे तस्मात् तस्माज्जाता अजावयः यत्पुरुषम् व्यदधुः कथिदा व्यकल्पयन् मुखम् किमस्य को बाहु का भूरुपादा उच्येते ब्राह्मणोऽस्य मुखमासीत् बाहुराजन्यकृतः ऊरु तदस्य यद्वैष्यः पद्यागुम् शूद्रो अजायत चन्द्रमा मनसो जातः चक्षुःसूर्यो अजायत मुखादिन्द्रस्याग्निश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षम् शीर्षोद्यो समवर्तत पद्भ्याम् भूमिर्दिश श्रोत्रात् तथा लोकागुम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तुपारे सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वाभिवदन्यदास्ते धाता पुरस्ताद्यमुदाजहार चक्रप्रविद्वान् प्रदिशश्चतस्रः
ಸಪ್ತಮೇವಂ ವಿದ್ವಾನಮೃತ ಇಹ ಭವತಿ ನಾನ್ಯಃ ಪಂಥಾಯನಾಯ ವಿದ್ಯತೆ ಯಜ್ಞೇನ ಯಜ್ಞಮಯಜಂತ ದೇವಾಃ ತಾನಿ ಧರ್ಮಾಣಿ ಪ್ರಥಮಾನ್ಯಾಸನ್ ತೇ ಹನಾಕಂ ಮಹಿಮಾನಃ ಸಚಂತೆ ಯತ್ರ ಪೂರ್ವೇ ಸಾಧ್ಯಾಃ ಸಂತಿ ದೇವಾಃ ಅದ್ಯ ಸಂಭೂತ ಪೃಥಿವ್ಯೈರಚಾಚ ವಿಶ್ವಕರ್ಮಣಃ ಸಮವರ್ತತಾದಿ ತಸ್ಯ ತ್ವಸ್ತಾ ವಿದದ ದ್ರೂಪಮೇತಿ ತತ್ಪುರುಷಸ್ಯ ವಿಶ್ವಮಾಯಾನಮಗ್ರೇ ವೇದಾಹಮೇತಂ ಪುರುಷಂ ಮಹಾಂತಂ ಆದಿತ್ಯವರ್ಣಂ ತಮಸಃ ಪರಸ್ತಾತ್ ತಮೇವಂ ವಿದ್ವಾನಮೃತ ಇಹ ಭವತಿ ನಾನ್ಯಃ ಪಂಥಾ ವಿದ್ಯತೆ ಜನಾಯ ಪ್ರಜಾಪತಿಶ್ಚರತಿ ಗರ್ಭೇ ಅಂತಃ ಅಜಾಯಮಾನೋ ಬಹುಧಾ ವಿಜಾಯತೆ ತಸ್ಯ ಧೀರಾಃ ಪರಿಜಾನಂತಿ ಯೋನಿಂ ಮರೀಚೀನಾಂ ಪದಮಿಚ್ಛಂತಿ ವೇದಸಃ ಯೋ ದೇವೇಭ್ಯ ಆತಪತಿ ಯೋ ದೇವಾನಾಂ ಪುರೋಹಿತಃ ಪೂರ್ವೋ ಯೋ ದೇವೇಭ್ಯೋ ಜಾತಃ ನಮೋ ರುಚಾಯ ಬ್ರಾಹ್ಮಯೇ ರುಚಂ ಬ್ರಾಹ್ಮಂ ಜನಯಂತಃ ದೇವಾ ಅಗ್ರೇ ತದಬ್ರವನ್ ಯಸ್ತ್ವೈವಂ ಬ್ರಾಹ್ಮಣೋ ವಿದ್ಯಾತ್ ತಸ್ಯ ದೇವಾ ಅಸನ್ವಸೇ ಹೇಶ್ಚ ತೇ ಲಕ್ಷ್ಮೀಶ್ಚ ಪತ್ನ್ಯೋ ಅಹೋರಾತ್ರೇ ಪಾರ್ಶ್ವೇ ನಕ್ಷತ್ರಾಣಿ ರೂಪಂ ಅಶ್ವಿನೋ ವ್ಯಾಪ್ತಂ ಇಸ್ತಂ ಮನಿಷಾಣ ಅಮಂ ಮನಿಷಾಣ ಸರ್ವಂ ಮನಿಷಾಣ ತಚ್ಛಯೋರಾವೃಣೀಮಹೇ ಗಾತಂ ಯಜ್ಞಾಯ ಗಾತಂ ಯಜ್ಞಪತಯೇ ದೈವೇ ಸ್ವಸ್ತಿರಸ್ತುರಃ ಸ್ವಸ್ತಿರ್ಮಾನುಷೇಭ್ಯಃ ಊರ್ಧ್ವಂ ಜಗಾತು ವೇಷಜಂ ಸನ್ನೋ ಅಸ್ತು ದ್ವಿಪದೇ ಶಂ ಚತುಷ್ಪದೇ ಓಂ ಶಾಂತಿ 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 ಓಂ
ಅತ್ರಿಣಾತ್ವಾಕ್ರಿಮೇ ಹನ್ಮೇ ಕರ್ಣೇನ ಜಮದಗ್ನಿನಾ ವಿಶ್ವಾವಸೋ ಬ್ರಹ್ಮಣಾ ಹತಃ ಕ್ರಿಮಿನಾಗುಂ ರಾಜಾ ಅಪ್ಯೇಷಾಗಸ್ತಪತಿರ್ಹತಃ ಅತೋ ಮಾತಾ ಅಥೋ ಪಿತಾ ಅಥೋ ಸ್ಥೂರಾ ಅಥೋ ಕ್ಷುದ್ರಾಃ ಅಥೋ ಕೃಷ್ಣ ಅಥೋ ಶ್ವೇತಾಃ ಅಥೋ ಆಶಾತಿಕಾ ಹತಾಃ ಶ್ವೇತಾಭಿಃ ಸಹ ಸರ್ವೇ ಹತಾಃ ಆಹರಾವದ್ಯಾ ಶ್ರುತಸ್ಯ ಹವಿಷೋ ಯಥಾ ತತ್ ಸತ್ಯಂ ಯದಮಯ್ಯವಸ್ಯ ಜಂಭಯೋಃ ಆದಧಾವಿ ತಥಾ ಹಿ ತತ್ ಕನ್ಪನ್ರಸಿ ಓಂ ಶಾಂತಿ 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 ಓಂ ಪ್ರಾತರಗ್ನಿಂ ಪ್ರಾತರಿಂದ್ರಗುಂ ಹವಾಮಹೇ ಪ್ರಾತರ್ಮಿತ್ರಾವರುಣಾ ಪ್ರಾತರಶ್ವಿನಾ ಪ್ರಾತರ್ಭಗಂ ಪೋಷಣಂ ಬ್ರಹ್ಮಣಸ್ಪತಿಂ ಪ್ರಾತಃ ಸೋಮಮುತ ರುದ್ರಗುಂ ಹುವೇಮ ಪ್ರಾತರ್ಜಿತಂ ಭಗಮುಗ್ರಗುಂ ಹುವೇಮ ವಯಂ ಪುತ್ರವದಿತೇರ್ಯೋ ವಿಧರ್ತಾ ಆದ್ರಶ್ಚಿದ್ಯಂ ಮನ್ಯಮಾನಸ್ತುರಶ್ಚಿದ್ರಾಜಾಚಿದ್ಯಂ ಭಗಂ ಭಕ್ಷೇತ್ಯಾಹ ಭಗ ಪ್ರಣೇತರ್ಭಗ ಸತ್ಯರಾಧೋ ಭಗೇವಾಂ ನಿಯಮುದ ಭಗದನ್ನಃ ಭಗ ಪ್ರಣೋ ಜನಯ ಗೋಭಿರಶ್ವೈರ್ ಭಗ ಪ್ರಣವಿಂದ್ರುವಂತ ಸ್ಯಾಮ उते दारीम् भगवन्तस्यामोत प्रपित्व उत मध्ये अह्ना उतोदिता भगवन् सूर्यस्य वयम् देवानागुम् सुमतौ स्यामा भग एव भगवागुम् अस्तु देवास्तेन वयम् भगवन्तः स्यामा तन्त्वा भगः सर्व इज्जो हवे विशनो भगपुर एता भवेह समध्वरायोषसो नवन्तदधिक्रावे वशुचये पदाय अर्वाचीनम् वसुविदम् भगन्नो रथविवाश्वाजिन आवहन्तु अश्वावतीर्गोमतीर्न उषासो वीरवती सदमुच्छन्तु भद्राः घृतम् दुहारा विश्वतः प्रवीण यूयम् पात स्वस्तिभिः सदा नः यो माग्ने भागिनगुम् सन्तमता भागम् शिकीर्षति अभागमग्ने तम् कुरु मामग्ने भागिनम् कुरु ॐ
शान्ति शान्ति शान्ति
ॐ आसक्तेन रजसा वर्तमानो निवेशयन्नमृतम् मर्त्यम् च हिरण्येन सवितारथेन देवो याति भुवना विपश्यन् अग्निम् दूतम् वृणीमहे होतारम् विश्ववेदसम् अस्य यज्ञस्य सुक्रतम् एषामीशे पशुपतिः पशूनाम् चतुष्पदा मृत च द्विपदा निष्क्रेतोऽयम् यज्ञेयम् भागवेतु राजस्पोषा यजमानस्य सन्तु ॐ अधिदेवता प्रत्यधिदेवता सहिताय आदित्याय नमः ॐ आप्याय स्वसमेतु ते विश्वतः सोमवृष्ट्यम् भवावाजस्य सङ्गते अप्सु मे सोमो अब्रवीदन्तर्विश्वानिवेशजा अग्निम् च विश्वशम्भुवमापश्च विश्ववेशदेः गौरेमिमाय सलिलानि तक्षन्येकपदे द्विपदे सा चतुष्पदे अष्टापदे नवपदे बभूमुषि सहस्राक्षरा परमे व्योमन् ॐ अधिदेवता प्रत्यधिदेवता सहिताय सोमाय नमः ॐ अग्निर्मूर्धादिवः ककुः पतिः पृथिव्या अयम् अपागुम् रेतागुम् सिजिन्वते श्योना पृथिविभवानृक्षरा निवेशने यच्छानः शर्म सप्रताः क्षेत्रस्य पतिना वयगुम् हिते नेव जयामसि गामश्वम् पोषयित्रवासनो मृणादीदृशे ॐ अधिदेवता प्रत्यधिदेवता सहिताय अङ्गारकाय नमः ॐ उद्भुजस्वाग्ने प्रतिजागृह्येन विष्टा पूर्ते सगुम् सृजेतामयम् च पुनः कृण्वग्स्वापितरम् युवानमन्वातागुंसे त्वयि तन्तुमेतम् इदम् विष्णुर्विचक्रमे त्रेधानि ददे पदम् समूढमस्य पागुम् सुरे विष्णोरराटमसि विष्णो पृष्टमसि विष्णोश्नप्ते स्तो विष्णोश्नोरसि विष्णो ध्रुवमसि वैष्णवमसि विष्णवे त्वा ॐ अधिदेवता प्रत्यधिदेवता सहिताय बुधाय नमः ॐ बृहस्पते अत्य धर्यो अर्हाद्युमद्धिमाति क्रतुमज्जनेषु यद्धील यच्छवसर्त्र प्रजात तदस्मासु द्रविणम् देहि चित्रम् इन्द्रमरुत्व इह पाहि सोमम् यथा शार्याति अभिवस्युतस्य तव प्रणेदे तव शूरशर्मन्नाभिवासन्ति कवयस्व यज्ञाः ब्रह्मजज्ञानम् प्रथमम् पुरस्ताद्विषेमतः सुरुचो वेन आवह स वन्द्रिया उपमा अस्य विष्टा सतश्च योनिमदश्च विवः ॐ अधिदेवता प्रत्यधिदेवता सहिताय बृहस्पतये नमः ॐ प्रव शुक्राय भानवे भरद्वगुम् हव्यम् मतिम् चाग्नये सुभूतम् यो देव्यानिमानुषा जनो गुष्यन्तर्विश्वानि विद्वदानिगाति इन्द्राणि मासुनारिषु सुपत्नी महवश्रवम् न ह्यस्यापरम् च न जरसामरते पतिः इन्द्रम् वो विश्वतस्परि हवामहे जनेभ्यः अस्माकमस्तु केवलः ॐ अधिदेवता प्रत्यधिदेवता सहिताय शुक्राय नमः ॐ शन्नो देवीरभीष्टय आपो भवन्तु वेतये शय्योरभिश्रवन्तु नः प्रजापतेन त्वदेतान्यन्यो विश्वाजातानि परिता बभूव यत्तामास्ते जुहुमस्तन्नो अस्तु वयज्ञस्यामपतयोरहीना इमम् यवप्रस्थरमाहि सेनाङ्गिरो पितृभिः संविधानः आत्वा मन्त्रा कविशस्ता वहन्ते नाराजन् हविषामादयस्व ॐ अधिदेवता प्रत्यधिदेवता सहिताय शनेश्चराय नमः ॐ कल्याणस्य चित्र आभुवधूते सखा वृधः सखा कयाशतिष्ठया वृता आयङ्गौ पृष्टिरक्रमीदशरन्मातरम् पुनः पितरम् च प्रयन्सुवः यत्ते देवे निरृतिया भवन् ददामग्रेवा स्वविचर्त्यम् इदन्ते तद्विश्याम्यायुषो नवद्या तदा जीव पितुमद्धि प्रमुक्तः ॐ अधिदेवता प्रत्यधिदेवता सहिताय राहवे नमः ॐ केतुम् कृण्वन्न केतवे पेशो वर्य अभेषते शमुषद्भिरजायताः ब्रह्मा देवानाम् पदवेर्कवीनाम् ऋषिर्विप्राणा महिषो मृगाणाम् श्येनो रुद्रा नागस्वरितिर्वना नागुम् सोमः पवित्रमत्येतिरेवन्न सचित्रचित्रम् चितयन् तमस्मे चित्रक्षत्रचित्रतमम् वयोधा चन्द्रम् रयिम् पुरुवीरम् बृहन्तम् चन्द्रचन्द्राभिर्गृणते युवस्व ॐ अधिदेवता प्रत्यधिदेवता सहितेभ्यः केतुभ्यो नमः ॐ आदित्यादिनवग्रहदेवताभ्यो नमो नमः ॐ शान्ति शान्ति शान्तिः ॐ जातवेदसे सुनवामसोममराति यतो निदहाति वेदः
ಸನಪರಿಸನತಿ ನಾವೇ ವಸಿಂಧು ದೊರೆತಾಗ್ನಿ ತಾಮಗ್ನಿವರ್ಣಾಂ ತವಸಾ ಜ್ವಲಂತಿ ವೈರೋಚನೀಂ ಕರ್ಮ ಫಲೆ ಸಜಸ್ತಾ ದುರ್ಗಾಂ ದೇವೀಂ ಶರಣಮಹಂ ಪ್ರಪದ್ಯೆ ಸುತರಸಿ ತರಸೇ ನಮಃ ಅಗ್ನೇ ತ್ವಂ ಪಾರಯಾನವ್ಯೋ ಅಸ್ಮಾನ್ ಸ್ವಸ್ತಿ ವಿರತಿ ದುರ್ಗಾಣಿ ವಿಶ್ವಾ ಪೋಶ್ಚ ಪೃಥಿವೀ ಬಹುಲಾನ ಉರ್ವೀ ಭವ ತೋಕಾಯತನಯಾಯ ಸಂಯೋ ವಿಶ್ವಾನಿ ನೋ ದುರ್ಗಾ ಜಾತ ವೇದಸ್ವಿಂಧುಂ ನ ನಾವ ದುರಿತಾತಿ ವರ್ಷೇ ಅಗ್ನೇ ಅತ್ರಿವನ್ಮನಸ ಗೃಹಾನೋಸ್ಮಾಕಂ ಬೋಧ್ಯವಿತ ತನೂನಾ ಪೃತನಾಜಿತಗುಂ ಸಮಾನಮುಗ್ರಮಗ್ನಿಗುಂ ಹುವೇಮ ಪರಮಾ ಸದಸ್ತಾತ್ ಸನಃ ಪರಿಷದತಿ ದುರ್ಗಾಣಿ ವಿಶ್ವಾಖ್ಯಾಮದ್ದೇವೋ ಅತಿದುರಿತಾದ್ಯಗ್ನಿಃ ಪ್ರತ್ನೋಶಿ ಕವೀಡ್ಯೋ ಅಧ್ವರೇಷು ಸನಾಶ್ಚ ಹೋತ ನವ್ಯಶ್ಚ ಸಸ್ವೇ ಸ್ವಾಂಚಾಗ್ರೇ ತನುವಂ ಪಿಪ್ರಯ ಸ್ವಾಸ್ಮಭ್ಯಂಚ ಸೋಮಗಮಾಯಸ್ವ ಗೋಭಿರ್ಜಷ್ಟಮಯುಜೋ ನಿಷಿಕ್ತಂ ತವೇಂದ್ರ ವಿಷ್ಣೋರನು ಸಂಚರೇಮ ನಾಕಶ್ಚ ವೃಷ್ಟಮವಿ ಸಂವಸಾರು ವೈಷ್ಣವೀಂ ಲೋಕಯಮಾದಯಂತ ಕಾತ್ಯಾಯನಾಯ ವಿದ್ಮಹೆ ಕನ್ಯಕುಮಾರಿ ಧೀಮಹಿ ತನ್ನೋ ದುರ್ಗಿಃ ಪ್ರಚೋದಯಾತ್ ಓಂ ಶಾಂತಿ 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 ಪುರುಷಸ್ಯ ವಿದ್ಮಸಹಸ್ರಾಖ್ಯಸ್ಯ ಮಹಾದೇವಸ್ಯ ಧೀಮಹಿ ತನ್ನೋ ರುದ್ರ ಪ್ರಚೋದಯಾತ್ ತತ್ಪುರುಷಾಯ ವಿದ್ಮಹೆ ಮಹಾದೇವಾಯ ಧೀಮಹಿ ತನ್ನೋ ರುದ್ರ ಪ್ರಚೋದಯಾತ್ ತತ್ಪುರುಷಾಯ ವಿದ್ಮಹೆ ವಕ್ರತುಂಡಾಯ ಧೀಮಹಿ ತನ್ನೋ ದಂತಿ ಪ್ರಚೋದಯಾತ್ ತತ್ಪುರುಷಾಯ ವಿದ್ಮಹೆ ಚಕ್ರತುಂಡಾಯ ಧೀಮಹಿ ತನ್ನೋ ನಂದಿ ಪ್ರಚೋದಯಾತ್ ತತ್ಪುರುಷಾಯ ವಿದ್ಮಹೆ ಮಹಾಸೇನಾಯ ಧೀಮಹಿ ತನ್ನ ಷಣ್ಮುಖ ಪ್ರಚೋದಯಾತ್ ತತ್ಪುರುಷಾಯ ವಿದ್ಮಹೆ ಸುವರ್ಣಪಕ್ಷಾಯ ಧೀಮಹಿ ತನ್ನೋ ಗರುಡ ಪ್ರಚೋದಯಾತ್ ವೇದಾತ್ಮನಾಯ ವಿದ್ಮಹೆ ಹಿರಣ್ಯಗರ್ಭಾಯ ಧೀಮಹಿ ತನ್ನೋ ಬ್ರಹ್ಮ ಪ್ರಚೋದಯಾತ್ ನಾರಾಯಣಾಯ ವಿದ್ಮಹೆ ವಾಸುದೇವಾಯ ಧೀಮಹಿ ತನ್ನೋ ವಿಷ್ಣು ಪ್ರಚೋದಯಾತ್ ವಜ್ರನಖಾಯ ವಿದ್ಮಹೆ ತೀಕ್ಷ್ಣದಗ್ರಸ್ತ್ರಾಯ ಧೀಮಹಿ ತನ್ನೋ ನಾರಸಿಂಹ ಪ್ರಚೋದಯಾತ್ ಭಾಸ್ಕರಾಯ ವಿದ್ಮಹೆ ಮಹದ್ಯುತಿಕರಾಯ ಧೀಮಹಿ ತನ್ನೋ ಆದಿತ್ಯ ಪ್ರಚೋದಯಾತ್ ವೈಶ್ವಾನರಾಯ ವಿದ್ಮಹೆ ಲಾಲೀಲಾಯ ಧೀಮಹಿ ತನ್ನೋ ಅಗ್ನಿ ಪ್ರಚೋದಯಾತ್ ಕಾತ್ಯಾಯನಾಯ ವಿದ್ಮಹೆ ಕನ್ಯಕುಮಾರಿ ಧೀಮಹಿ ತನ್ನೋ ದುರ್ಗಿ ಪ್ರಚೋದಯಾತ್ ಓಂ ಸಾಯೇಶ್ವರಾಯ ವಿದ್ಮಹೆ ಸತ್ಯದೇವಾಯ ಧೀಮಹಿ ತನ್ನ ಸರ್ವ ಪ್ರಚೋದಯಾತ್ ಸಹಸ್ರ ಪರಮಾದೇವಿ ಶತಮೂಲಾ ಶತಾಂಕುರಾ ಸರ್ವಗುಂ ಹರತು ಮೇ ಪಾಪಂ ದೌರ್ವಾದ ಸ್ವಪ್ನನಾಶಿನಿ ಕಾಂಡಾ ಕಾಂಡಾ ಪ್ರರೋಹಂತಿ ಪರುಷ ಪರುಷ ಪರೇ ಏವಾನೋ ದೋರ್ವೇ ಪ್ರದನು ಸಹಸ್ರೇಣ ಶತೇನ ಚ యాశతేన ప్రతనోషి సహస్రేణ విరోహసి తస్యాస్తే దేవేష్టకే విదేమ హవిషావయం అశ్వక్రాంతే రథక్రాంతే విష్ణుక్రాంతే వసుంధరా శిరసా ధారయిష్యామి రక్షస్వమాం పదే పదే స్వస్తి ప్రజాభ్య పరిపాలయంతాం న్యాయేణ మార్గేణ మహిమహేశాః గోబ్రాహ్మణేభ్య శుభమస్తు నిత్యం సమస్త లోకాః సుఖినో భవంతు సమస్త లోకాః సుఖినో భవంతు సమస్త లోకాః సుఖినో భవంతు ఓం శాంతి శాంతి శాంతి.